अनश्वो जातो अनभीषो रुख्यो रथस्त्रिचक्रः परिवर्तते रजः महत्तद्भो देव्यस्य प्रवाच नन्द्यामृभवः पृथिवीं यच्च पुष्यथ रथञ्जे चक्रः स्वव्रतम् सुचेतसो विह्वरन्तम् मनसस्परिध्यया तान्वा अस्य सवनस्य पीतय आवो वाजार्भवो वेदयामसि तद्वा वाजार्भवः सुप्रवाचनम् देवेषु बिभ्रो अभवन्महित्वनम् जिव्रीयत्सन्ता पितरा स नाजुरा पुनर्युवा ना च रथा यतक्षथ एकम् विचक्रसमसञ्चतुर्वजन्निश्चर्मणो गामरिणीतधीतिभिः अथ देवेष्वमृतत्वमानशसृष्टिवाजार्भवस्तद्व उख्यम् प्रभुतो रजः प्रथमश्रवस्तमो वाजश्रुता सोऽयमजी जनन्नराः बिभ्रतष्टो विदधे एष प्रवाच्योऽयम् देवासोऽवथा स विचर्षणिः स वाजर्वासर्षिर्वचस्य जासशोरो अस्ताप्रतनासु दुष्टराः स राजस्पोषम् स सुवीर्यम् दधेजम् वाजो बिभ्राङ्गृभवोजमाविशः श्रेष्ठम् भःपेशो अधिधायिदर्शतम् स्तोमो वाजार्भवस्तञ्जुजुष्टना धीरा सोऽहिष्ठा कवयो विपश्चिदस्तान्व एना ब्रह्मणा वेदजामसि योजमस्मभ्यम् धिषणाभ्यस्परि विद्वांसो विश्वानर्याणि भोजना युमन्तम् वाजम् वृषशुष्ममुत्तममानो रजिम्रभवस्तक्षतावजाः इह प्रजामिह रजिम्रराणा इह श्रवो वीरवत्तक्षतानः येन वयम् चितयेमात्यन्यान्तम् वाजम् चित्रमृभवो ददानः